एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। सत्ता गठबन्धनस्य उपवेशेन एतद् वैक्रमाब्दं नेपाल नागरिकता विधेयकं संसदा पारितीकृत्य पुनः राष्ट्रपतेः समक्षं प्रमाणीकरणाय प्रेषयितुं निर्णीतं वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्या उपविष्टेन पञ्चदलीय सत्ता गठबन्धनस्य उपवेशेन नागरिकता विधेयकं संसदा तत्कालं प्रक्रियाम् अग्रे प्रवर्ध्य पुनः राष्ट्रपते समक्षं प्रेषयितुं निर्णीतमस्ति। प्रतिवेशितस्य नागरिकता विधेयकस्य पुनः संसदा पारित करणानन्तरं राष्ट्रपतिना प्रमाणीकरणात्मिकायाः सांविधानिक व्यवस्थायाः अनुसारेण प्रक्रियाम् अग्रे वर्धयितुं सहमतिर्धृतेति सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अज्ञापयत्। एवमेव उपवेशेन सत्यनिरूपणा मेलायोग विधेयकस्य सम्बन्धे वृहदरूपेण सम्बद्ध जनानां मानवाधिकार कर्मिणां नागरिक समाजस्य पीड़ित जनानां च परामर्शान् विचार्य विधेयकमिदम् अग्रे वर्धयितुं निर्णय मिति च मन्त्री कार्की असूचयत्। प्रतिनिधि सभायाः गतदिवसीय उपवेशेन विभिन्नानि चत्वारि विधेयकानि पारितीकृतानि सन्ति। उपवेशेन एतद् विक्रमवर्षीय सार्वजनिक ऋण व्यवस्थापन विधेयकम्, पशुस्वास्थ्य पशुसेवा परिषद विधेयकम् च, गत विक्रमवर्षीय मानक मापन तोलन पञ्चम संशोधन विधेयकम्, प्रत्यायन विधेयकम् च पारितीकृतानि सन्ति। सार्वजनिक ऋण व्यवस्थापन विधेयकम् अर्थमन्त्रिणा जनार्दन शर्मणा, पशुस्वास्थ्य पशुसेवा विधेयकम् कृषि पशु पक्षी विकास मन्त्रिणा मृगेन्द्र कुमार सिंह यादवेन च सभायां प्रस्तुते आस्ताम्। उपवेशेन राष्ट्रिय सभातः ससन्देशं प्राप्ते मानक मापन तोलन पञ्चम संशोधन विधेयकम् प्रत्यायन विधेयकम् च बहुमतेन पारितीकृते स्तः। विधेयकद्वयमेतद् उद्योग वाणिज्यापूर्ति मन्त्रिणा दिलेन्द्र प्रसाद बडु इत्यनेन सभायां प्रस्तुतम् आसीत्। तत्पूर्वम् उपवेशे सांसदैः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। सांसदाः अव्यवस्थितानां भूमिहीन निवसतां जनानां उचित व्यवस्थापनं विधातुं विकास निर्माणयोः कार्याणि प्रभावकारिरूपेण अग्रे वर्धयितुं प्रधानमन्त्री वृत्त्युपार्जन कार्यक्रमं प्रभावकारिणं निर्मातुं काष्ठमण्डपोपत्यकायाः अवकरस्य व्यवस्थापनं कर्तुं पदसंख्यानुसारेण स्वास्थ्यकर्मिणां व्यवस्थां विधाय ग्रामीणक्षेत्रे स्वास्थ्यसेवायाः उपागमनं स्थापयितुं च सर्वकारस्य ध्यानम् आकर्षयन् सांसदाः नागरिकतायां दलितस्य नाम्नः अपमानस्य विषय निन्दनीयस्थिति तर्कयन्तः नाम संशोधनेच्छुकानां जनानां कृते गृहमन्त्रालयेन दत्तं निर्देशनं जनपद प्रशासन कार्यालयैः क्रियान्वितं नास्तीति अवदन्। एवमेव सांसदैः उक्तं नागरिकता विधेयकस्य पुनर्विचाराय पुनः सदने एव प्राप्तिः राष्ट्रिय सहमतये अवसरो वर्तते। प्रतिनिधिसभायाः अपरोपवेशः श्व भाद्रस्य द्वितीय दिवसे बृहस्पतिवासरे पूर्वाह्नस्य एकादशवादने आगामिनः प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय नूतनानि प्राक्तनानि च कृत्वा समग्रतः चतुरशीत्या दलैः दलपञ्जीकरणाय निवेदनानि प्रस्तुतानि सन्ति। सर्वकारेण निर्वाचनायोगस्य परामर्शेन आगामिनो मार्गशीर्षमासस्य चतुर्थदिवसाय एकस्मिन्नेव चरणे निर्वाचनस्य दिन निर्धारणानन्तरं दलपञ्जीकरणाय निर्धारितं ह्यस्तनम् अन्तिमदिनं यावत् चतुरशीत्याः दलैः पञ्जीकरणाय निवेदनानि प्रस्तुतानि सन्ति। आयोगेन एतेषां दलानां मूलपञ्जीकरणं पञ्जीकरणदिवसः दलस्य नाम दलप्रमुखस्य नाम आयोगे दलपञ्जीकरणस्य अंकाश्चेत्यादीनि विवरणानि संकलितानि सन्ति। निर्वाचनायोगेन प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानाम् आगामिनो मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पत्स्यमानं निर्वाचनं सुव्यवस्थितरूपेण सम्पादयितुं निर्वाचन कार्यतालिकां निर्माय अतिरिक्त गृहकार्याय तीव्रता प्रदत्तास्ति। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया आयोगेन एतदवधौ निर्वाचने भागग्रहणाय इच्छुकैः राजनीतिकैर्दलैः दलपञ्जीकरणाय आह्वानं विहितम्। आर्थिक व्यवस्थापन कार्यविधिः निर्मितः निर्वाचनाय व्ययानुमानं विहितं चास्तीति असूचयत्। निर्वाचनस्य कृते आसन्न दशाब्जानां रूप्यकाणां व्ययः सम्पूर्ण मतदातृणां संख्या आसन्न एककोटिः द्व्यशीतिः लक्षाणि च भविष्यन्तीति च आयोगेन अनुमिते स्तः। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया कथयति निर्वाचन लोकतंत्र जीवन पद्धतिरस्थिति हेतु एतस्य विषयस्य संसूचनाय संचार माध्यमैः भूमिका निर्वोढव्या। राष्ट्रिय समाचार समित्या ह्य आयोजिते निर्वाचन समाचार सम्प्रेषणा विमुखीकरण कार्यक्रमे प्रमुखायुक्त थपलिया स्वच्छस्य निष्पक्षस्य भयमुक्तस्य विश्वसनीयस्य पारदर्शिनश्च निर्वाचनस्य कृते सहयोग प्रापणत्वेन पूर्ववत् संचार माध्यमैः योगदानं विधीयते इति विश्वासं व्यक्तवान्। कार्यक्रमे राष्ट्रिय समाचार समितेः कार्यकारी अध्यक्ष धर्मेन्द्र झा च विचारं प्राकटयत्। आगामिन मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमाने प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचने नेकपा माओवादी केन्द्रेण नेपाल समाजवादी दलेन च एकेनैव निर्वाचन चिन्हेन निर्वाचनं प्रतिस्पर्धिष्यते। माओवादी केन्द्रस्य ह्य उपविष्टेन स्थायी समितेः उपवेशेन डा बाबुराम भट्टराई इत्यस्य नेतृत्वस्य समाजवादी दलाय स्वस्य निर्वाचन चिन्हस्य प्रयोगाय अनुमतिं प्रदातुं निर्णीतं वर्तते इति दलस्य प्रवक्ता कृष्णबहादुर महरा अज्ञापयत्। एतदर्थं निर्वाचन आयोगे संयुक्त रूपेण दलद्वयेन निवेदनं प्रदत्तमस्तीति च प्रवक्ता महरा ज्ञापितवान्। एवमेव राष्ट्रिय सभायाः सदस्यस्य वामदेव गौतमस्य नेतृत्वस्य नेकपा एकताभियानेनापि माओवादी केन्द्रस्यैव निर्वाचन चिह्नं प्रयोक्ष्यते इति च प्रवक्ता महरा असूचयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्वस्य देशः स्वेन एव निर्मातव्य इति वदति। अखिल नेपाल महिला संघ युव सञ्जालेन ह्य काष्ठमण्डपे आयोजितायां युव महिलाः राजनीतिश्चेति विषयिण्यां विचारगोष्ठ्याम् अध्यक्ष ओली कोऽपि देश इतरेण न निर्मीयते स्वेनैव स्वदेशो निर्मातव्य इति धारणां व्यक्तवान्। अध्यक्ष ओली चीन सदृश विपुलः देशोऽपि दशकत्रयात् दशकचतुष्टयात् च पूर्वं विपन्नः आसीत् स्वस्यैव परिश्रमेण सम्प्रति समृद्धो वर्तते इति उदाहरणं प्रादर्शयत्। विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद कोइराला तर्कयति सामाजिक सञ्जालस्य अधिक वचस्वाद् निर्वाचने मिथ्या सूचनायाः सम्प्रेषणस्य रोदनं कठिनं वर्तते। नेपाल मतदात्राधिकार मञ्चेन ह्य आयोजितायां निर्वाचने व्याप्तयोः मिथ्या भ्रामकानुचित सूचनायाः घृणास्पदाभिव्यक्तेश्च नियन्त्रणाय नीतिर्निर्मातृणां भूमिका इति विषयिण्याम् अन्तरक्रियायाम् असौ अवोचत् सामाजिक सञ्जाल नियन्त्रक संयन्त्रस्य अनिर्माणं यावत् एतादृश्यः सूचनाः रोद्धुं न शक्यन्ते। कार्यक्रमे नेकपा एमाले दलस्य प्रमुख सचेतक पदीयो विशाल भट्टराई लोकतन्त्रे मर्यादा शिष्टता च नेपालीत्वम् अस्तित्व चर्चयन् अगदत् यस्मात् कस्मादपि माध्यमात् प्रयुक्ताः सन्तोऽपि अमर्यादित शब्दानां विधिना नियमनं विधातव्यम्। जनता समाजवादी दल नेपालस्य अध्यक्ष उपेन्द्र यादव भासते निर्वाचन प्रणाल्यां सुधारः आवश्यको वर्तते। समाजवादी युवसंघ नेपालस्य राष्ट्रिय युवमेलां ह्य जनकपुर धाम्नि उद्घाटयन् अध्यक्ष यादव अगदत् निर्वाचन प्रणाल्या अधिक व्यसाध्यताया कारणेन उपयुक्तया सक्षमया च व्यक्त्या निर्वाचने विजयप्राप्तिः कठिना सम्भूता अस्ति।